तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम लक्ष्मणौ बाहु पार्श्व परिक्षिप्तौ कबन्धः वाक्यम् अब्रवीत्। तिष्ठतः किं नु माम् दृष्ट्वा क्षुधा आर्तम् क्षत्रिय ऋषभौ आहार अर्थम् तु संदिष्टौ दैवेन गतचेतसौ। तत् श्रुत्वा लक्ष्मणः वाक्यम् प्राप्तकालम् हितम् तदा उवाच आर्ति सम् आपन्नः विक्रमे कृतनिश्चयः त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस अधमः तस्मात् असिभ्याम् अस्य आशु बाहू छिन्दावहे गुरु। ततः तौ देशकालज्ञौ खड्गाभ्याम् एव राघवौ अच्छिन्दताम् सुसंहृष्टौ बाहू तस्य अंशदेशयोः दक्षिणः दक्षिणम् बाहुम् असक्तम् असिना ततः चिच्छेद रामः वेगेन सव्यम् वीरः तु लक्ष्मणः सः पपात महाबाहुः छिन्नबाहुः महास्वनः। खं च गां च दृशः च एव नादयन् जलदः यथा सः निकृत्तौ भुजौ दृष्ट्वा शोणित ओघ परिपुतः दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः शशंस तस्य काकुत्स्थम् कबन्धस्य महाबलः अयम् इक्ष्वाकुदायादः रामः नाम जनैः श्रुतः अस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम्। अस्य देवप्रभावस्य वसतः विजने वने रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ। त्वम् तु कः वा किम् अर्थम् वा कबन्ध सदृशः वने आस्येन उरसि दीप्तेन भग्नजङ्घः वितिष्ठसे। एवम् उक्तः कबन्धः तु लक्ष्मणेन उत्तरम् वचः उवाच परमप्रीतः तद् इन्द्रवचनम् स्मरन् सु आगतम् वाम् नरव्याघ्रौ दृष्ट्या पश्यामि च अपि अहम्। दृष्ट्या च इमौ निकृत्तौ मे युवाभ्याम बाहु बंधनौ विरूपम यत च मे रूपम प्राप्तम हि अविनयात यथा तत् मे शृणु नरव्याघ्र तत्त्वतः संसतः तव।